सौंदर्य लहरी भूमौ स्खलित पादानां भूमिरेवावलम्बनम् त्वयि जाता पराधानान् त्वमेव शरणं शिवे। प्रथम भाग आनंद लहरी। शिव शक्त्यायुक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलस्पन्दितुमपि अतस्त्वामाराध्यां हरिहर विरीचादिभिरपि प्रणन्तुं स्तोतुं वा कथम कृत पुण्यः प्रभवति। तनीयां संपां सुन् तव चरण पंकेरुह भवौ विरीचिस्सैचिन्वन् विरचयति लोकान विकलम् वहत्येनं शौरिक कथमपि सहस्रेण शिरसा हरसंक्षुद्यैनं भजति भसितो दूलन विधिम् अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी जडानाय चैतन्यस्तव कमकरन्दश्रुतिझरी दरिद्राणाय चिन्ता मणिगुणनिका जन्मजलधौ निमग्नानन्दं श्रा मुररिपुवराहस्य भवति। त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः त्वमेका नैवासीत् प्रकटितवाराभीत्यभिनया भयात्रातुं दातुं फलमपि च वाञ्छा समधिकम् शरण्ये लोकानां तव हि चरणावेव निपुणौ हरिस्वामाराध्य प्रणतजनसौभाग्यजननीं पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् स्मरोऽपि त्वान्नत्वा रतिनयनलेह्येन वपुषा मुनीनामप्यन्तः प्रभवति हि मोहाय महताम्। धनुः पौष्पं मौर्वी मधुकरमयी पै च विशिखाः वसन्तस्सामन्तो मलयमरुदायो धनरथः तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपाम् अपाङ्गाति लब्ध्वा जगदिदमनङ्गो विजयते। क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता परीक्षीणा मध्ये परिणत शरच्चन्द्रवदना धनुर्बाणान् पाशम् शृणिमपि दधाना करतलैः पुरस्तादास्तान्नः पुरमथितुराहो सिन्धोर्मध्ये सुरविटपि वाटी परिवृते मणिद्वीपे नीपो पवन वति चिन्तामणिगृहे शिवाकारे मयि चे परमशिव पर्यङ्क निलयां भजन्ति त्वां धन्या कतिचन चिदानन्दलहरी महीमूलाधारे कमपि मणिपूरे हुतवहं स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि मनोऽपि ब्रूमध्ये सकलमपि भित्त्वा कुलपथं सहस्रारे पद्मे सहरहसि पत्या विहरसि सुधाधारा सारयीश चरणयुगलान्तर्विगलतैः प्रपैचं सेचन्ति पुनरपि रसाम्नाय महसः अवाप्य स्वां भूमिं भुजगनिभमद्युष्टवलयम् स्वमात्मानं कृत्वा स्वपिशिकुलकुण्डे कुहरिणि चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पैचभिरपि प्रभिन्नाभिः शम्भोर्नवभिरपि प्रकृतिभिः चतुश्चत्वारिंशत् वसुदलकलाशत् त्रिवलयत् त्रिरेखाभिः सार्धन् तव शरणकोणाः परिणताः त्वदीयं सौन्दर्यं तु हि न गिरिकन्ये तुलयितुं कवीन्द्राः कल्पन्ते कथमपि विरीचित् प्रभृतयः यदा लोकौत्सुक्या दमरललनायान्ति मनसा तपोभिर्दुष्प्रापा मपि गिरिशसायुज्य पदवीम् नरं वर्षीयां सन् नयन विरसन् नर्म सुजडन् तवापाङ्गालोके पतितमनुधावन्ति शतशः गलद्वीणी बन्धात् कुचकलश विस्रस्तसिचया हठात्त्रुट्यत्काच्यो विगलितदुकूलायुवतयः क्षितौ षट् पैचाशत् द्विसमधिकपैचाशदुदके हुताशी द्वाषष्टिश्चतुरधिकपैचाशदनिले दिवि द्विषट् त्रिंशत् मनसि च चतुष्षष्टिरिति ये मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम् शरज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटाम् वरत्रा सत्राणस्फणिकघटिकापुस्तककराम् सकृन्नत्वानत्वा त्वा कथमिव सतां सन्निदधते मधुक्षीरद्राक्षा मधुरि मधुरीणाः भणितयः कवीन्द्राणाय चेतक कमलवनबालातपरुचिं भजन्ते ये सन्तक कतिचिदरुणामेव भवति विरीचि प्रियस्यास्तरुणतर शृङ्गारलहरी गभीराभिर्वाभिर्विदधति सतां रैजनममी सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिः वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयति यः सत्कर्ता काव्यानां भवति महतां भङ्गिरुचिभिः वचोभिर्वाग्देवी वदनकमलामोदमधुरैः तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिः दिवं सर्वामूर्वी मरुणिमणिमग्नां स्मरति यः भवन्त्यस्यत्रस्यद् वनहरिणशालीननयनास्सहोर्वश्यावश्या कति कति न गीर्वाणगणिकाः मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो हरार्धन्ध्यायेद्यो हरमहिषिते मन्मथकलां ससद्यस्संक्षोभन् नयति वनिता इत्यति लघुत् त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसम् हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः ससर्पाणान् दर्पम् शमयति शकुन्ताधिपैवज् ज्वलप्लुष्टान् दृष्ट्या सुखयति सुधाधारशिरया तटिल्लेखा तन्वीं तपनशशिवैश्वानरमयीं निषण्णां षण्णामप्युपरि कमलाना महापद्माटव्यां मृदितमलमायेन मनसा महान्तः पश्यन्तो दधति परमह्लादलहरीं भवन्ति त्वन्दासी मयि वितरदृष्टिं सकरुणामिति स्तोतो वाच्छन् कथयति भवानि त्वमिति यः तदैव त्वन्तस्मै दिशसि निजसायुज्य पदवीं मुकुन्द ब्रह्मेन्द्रस् स्फुटमकुटनीराजितपदाम् त्वया रुत्व कृत्वा वाम वपुर परितृप्तेन मनसा शरीरार्धं शंभो रपरमपि शंकेरुतमभूत् यदि तत्त्वद्रूपं सकलमरुणामन्त्रिनयनं कुचाभ्यामानं रं कुटिलशशिचूडालमकुटं जगत्सूते धाता हरिरवति रुद्रः क्षपयति तिरस्कुर्वन्नेतत् स्वमपि वपुरीशस्तिरयति सदा पूर्वस्तर्वन् तदिदमनुगृह्णाति च शिवस्तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः त्रयाणां देवानां त्रिगुणजनितानां तव शिवे भवेत् पूजा पूजा तव चरणयोर्या विरचिता तथा हि त्वत्पादोर्वहनमणिपीठस्य निकटे स्थिता येते शाश्वत मुकुलित करोतं समकुटाः विरेचिः पैचत्वौ व्रजति हरिराप्नोति विरतिं विनाशंकीनाशो भजति धनदोयाति निधनं वितन्द्री माहेन्द्री विततिरपि सम्मीलितदृशा महासंहारेऽस्मिन् विहरति सति त्वत्पतिरसौ जपो जल्पशिल्पं सकलमपि मुद्राविरचना गतिः प्रादक्षिण्य क्रमणमशनाद्याहुतिविधिः प्रणामस्तवेशस् सुखमखिलमात्मार्पणदृशा सपर्यापर्यायस्तव भवतु यन्मे विलसितम् सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणी विपद्यन्ते विश्वे विदिशतमखाद्यादिविषदः करालयक्ष्वेलं कवलितवतक् कालकलना न शम्भोस्तन्मूलन् तव जननि ताटङ्कमहिमा किरीटं वैरेचं परिहर पुरः कैटभविदक् कठोरे कोटीरे स्खलसि जहि जम्भारि मकुटम् प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनम् भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयति स्वदेहोद्भूताभिर्द्रुणिभिरणिमाद्याभिरभितो निषेव्ये नित्ये त्वा महमिति सदा भावयति यः किमाश्चर्यन्तस्य त्रिनयन समृद्धिम् तृणयतो महासंवर्ताग्निर्विरचयति नीराजनविधिम् चतुष्षष्ट्या तन्त्रैः सकलमतिसन्धाय भुवनम् स्थितिस्तत्तत्सिद्धि प्रसव परतन्त्रैः पशुपतिः पुनस्त्वन्निर्बन्धा दखिल पुरुषार्थैकघटनास् स्वतन्त्रं ते तन्त्रम् क्षितितलवमार्तीतरदिदम् शिवशक्तिः कामः क्षितिरथरविशीतकिरणस्मरोऽहं सशक्रस्तदनु च परामारहरयः अमीरुल्लिखाभिः तिसृभिरवसानेषु घटिता भजन्ते वर्णास्ते तव जननि नामावयवताम् स्मरयो निल्लक्ष्मीम् त्रितयमिदमादौ तव मनोर्निधायैके नित्ये निरवधि महाभोगरसिकाः भजन्ति त्वाय चिन्तामणिगुणनिबद्धाक्षवलयाः शिवाग्नौ जुह्वन्तः सुरविघृतधाराहुतिशतैः शरीरं त्वं शम्भोश् शशिमिहिरवक्षोरुहयुगन् तवात्मानं मन्ये भगवति नवात्मानमग्नघम् अतः शेषशेषीत् ययमुभयसाधारणतया स्थितस्सम्बन्धो वाम् समरसपरानन्दपरयोः मनस्त्वं व्योमत्वं मरुदसि मरुत्सारथिरसित् त्वमापस्त्वं भूमिस्त्वयि परिणतायान्न हि परम् त्वमेव स्वात्मानम् परिणमयितो विश्ववपुषा चिदानन्दाकारम् शिवयुवति भावेन विभृषे तवाज्ञाचक्रस्थन् तपनशशिकोटिद्युतिधरम् परं शम्भो वन्दे परिमिलितपार्श्वं परचिता यमाराध्यन् भक्त्या रविशशिशुनि शुचीनाम विषये निरालोके लोके निवसति हि भालोकभुवने विशुद्धौ ते शुद्धस्फटिकविशदौ व्योमजनकम् शिवं सेवे देवीमपि शिवसमानव्यवसिताम् ययोक्तान्त्या यान्त्याः शशिकिरणसारूप्यसरणे विभूतान्तद्दर्द्वान्ता विलसति च कोरीव जगति समुन्मीलत्संवित् कमलमकरन्दैकरसिकम् भजेहं सद्वन्द्वम् किमपि महताम् मानसचरम् यदालापादष्टा दशगुणितविद्या परिणतिर्यदा दत्ते दोषात् गुणमखिलमद्भ्यः पय इव तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतम् तमीडे संवर्तये जननि महतीं ताये च समयाम् यदा लोके लोकान् दहति महति क्रोधकलिते दयार्द्राया दृष्टिश् शिशिरमुपचारम् रचयति तटित्वन्तम् शक्त्या तिमिरपरिपन्थि स्फुरणया स्फुरन्नानारत्ना भरणपरिणन् दीन्द्रधनुषम् तव श्यामम् मेघम् कमपि मणिपूरैकशरणम् निषेवे वर्षन्तम् हरमिहिरतप्तम् त्रिभुवनम् तवाधारे मूले सह समयया लास्य परया नवात्मानं मन्ये नवरसमधाताण्डवनटम् उभाव्यामीताभ्या मुदयविधिमुद्दिश्य दयया सनाथाम्भ्यै जज्ञे जनकजननीमज्जगदिदम्
द्वितीय भाग सौंदर्य लहरी
गतैर्माणिक्यत्वं गगनमणिभिस्सान्द्रघटितं किरीटन्ते हैमं हिमगिरिसुते कीर्तयति यः सनीडे यच्छायाच् छुरणशबलै चन्द्रशकलन् धनुशौनाशीरम् किमिति न निबध्नाति धिषणाम् धुनोतु ध्वान्तन्नस्तुलितदलितेन्दीवरवनम् घनस्निग्धश्लक्ष्णै चिकुरनिकुरुम्बन्तव शिवे यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो वसन्त्यस्मिन्मन्ये वलमथन वाटीविटपिनां तनोतु क्षेमन् तव वदन सौन्दर्यलहरी परीवासस्रोतस् सरणिरिव सीमन्त सरणिः वहन्ति सिन्दूरं प्रबलकवरी भारति मेरद् द्विषां कृतमिव नवीनार्ककिरणम् करालै स्वाभाव्या दलिकलभसश्रीभिरलकैः परीतन्ते वक्त्रं परिहसति पङ्केरुहरुचिम् दरस्मीरेऽस्मिन् दशनरुचि कीजल्करुचिरे सुगन्धौ माद्यन्ते स्मरदहन चक्षुर्मधुलिहः ललाटल्लावण्य द्युतिविमलमाभाति तव यद् द्वितीयं तन्मन्ये मकुटघटितै चन्द्रशकलम् विपर्यासन्यासा दुभयमपि सम्भूय च मिथस् सुधालेपस्यूतिः परिणमति राकाहिमकरः भ्रुवौ भुग्ने किञ्चित् भुवनभयभङ्गौ व्यसनिनित् त्वदीये नेत्राभ्याम् मधुकररुचेभ्याम् धृतगुणम् धनुर्मन्ये सव्ये तरकरगृहीतम् रतिपतेः प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे अहस्तु ते सव्यन् तव नयनमर्कात्मकतया त्रिया मावामन्ते सृजति रजनीनायकतया तृतीया ते दरदलित हेमाम्बुजरुचिस् समाधत्ते सन्ध्यान् दिवसनिशयोरन्तरचरीम् विशाला कल्याणी स्फुटरुचिरयोध्याकुवलयैक् कृपाधाराधारा किमपि मधुरा भोगवतिका अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया ध्रुवं तत्तन्नाम व्यवहरणयोग्या कवीनां सन्दर्भस्तव कमकरन्दैकरसिकं कटाक्षव्याक्षेप भ्रमरकलभौ कर्णयुगलम् अमुचन्तौ दृष्ट्वा तव नवलरसास्वादतरला वैसूया संसर्गा दलिकनयनं केचिदरुणम् शिवे शृङ्गारार्द्रा तदितरजनीकुत्सनपरा सरोषा गङ्गायां गिरिशचरिते स्मयवती हराहिभ्यो भीता सरसिरुह सौभाग्यजननी सखीषु स्मीराते मयि जननी दृष्टिस्सकरुणा गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधति पुराम्बेतुश्चित्त प्रशमरस वेद्रावण फले इमे नेत्रे गोत्रा धरपति कुलोत्तम सकलिके तवा कर्णाकृष्टस् स्मर शर विलासं कलयतः विभक्तत्रैवर्ण्यौ व्यतिकरितलीलाय जनतया विभाति त्वन्नेत्र त्रितयमिदमीशानदयिते पुनःस्रष्टुं देवान् द्रोहिण हरिरुद्रानुपरतान् रजः सत्त्वं बिभ्रन् तमैति गुणानान्त्रयमिव पवित्रीकर्तुं नः पशुपतिपराधीनहृदये दयामित्रैर्नेत्रै ररुणधवलश्यामरुचिभिः नदशोणो गङ्गा तपनतनयेति ध्रुवममुन् त्रयाणां तीर्थाना मुपनयसि सम्भेदमनघम् निमेषोन्मेषाभ्यां प्रलयमुदयति जगति तवेत्याहुस्सन्तो धरणिधरराजन्यतनये त्वदुन्मेषा जातै जगदिदमशेषम् प्रलयतः परित्रातुं शङ्के परिरुतनिमेषास्तव दृशः तवापर्णे कर्णे जपनयन पैशुन्यचकिता निलीयन्ते तो ये नियतमनिमेषाः शफरिकाः इयै च श्रीर्वर्धच् छदपुटकवाटङ्कुवलयै जहाति प्रत्यूषे निशि च विघटय्य प्रविशति दृशाद्राघीयस्य दरदलितनीलोत्पलरुचा दवीयां सन्दीनं स्नपय कृपया मामपि शिवे अनेनायं धन्यो भवति न च ते हानिरियता वने समकरनिपातो हिमकरः अरालन्ते पाली युगलमगराजन्यतनये न केषामाधत्ते कुसुमशरकोदण्डकुतुकम् तिरश्चीनो यत्र श्रवणपथमुल्लङ्घ्य विलसन् न पाङ्गव्यासङ्गो दिशति शरसन्धानधिषणाम् स्फुरद्गण्डाभोग प्रतिफलितताटङ्कयुगलै चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथं यमा यवनिरथमर्केन्दुचरणम् महावीरो मारः प्रमथपतये सज्जितवते सरस्वत्या सूक्ति रमृतलहरी कौशलहरीः पिबन्त्या शर्वाणिः श्रवणचुलुकाभ्यामविरलम् चमत्कारश्लाघा चलितशिरसः कुण्डलगणो झणत्कारैस्तारैः प्रतिवचनमाचष्टैव ते असौ नासावंशस्तु हि न गिरिवंशाद्ध्वजपटित् त्वदीयो नेदीयः फलतु फलमस्माकमुचितम् वहन्नन्तर्मुक्ताः शिशिरतरनिःश्वासगलितम् समृद्ध्याय तासाम् बहिरपि च मुक्ता मणिधरः प्रकृत्या रक्तायास्तव सुदतिदन्तच्छदरुचिः प्रवक्ष्ये सादृश्यै जनयतु फलौ वेद्रुमलता न बिम्बं तद्बिम्ब प्रतिफलनरागादरुणितन् तुलामध्यारोढुम् कथमिव विलज्जेतकलया स्मितज्योत्स्नाजालन् तव वदनचन्द्रस्य पिबताय चकोराणामासि दतिरसतया चैचुजडिमा अतस्ते शीतांशो रमृतलहरीमम्ल रुचयः पिबन्ति स्वच्छन्दन् निशि निशि वृषङ्कायिजिकधिया अविश्रान्तं पत्युर्गुणगणकथामृडनजपा जपा पुष्पच्छाया तव जननि जिह्वा जयति सा यदग्रासीनायास्फटिकदृशदच्छविमयी सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा रणे जित्वा दैत्यानपरुतशिरस्त्रैः कवचिभिर् निवृत्तैश्चण्डांशत् त्रिपुरहरनिर्माल्यविमुखैः विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला विलीयन्ते मातस्तव विपैच्या गायन्ति विविधमपदानं पशुपतेः त्वयारब्धे वक्त्वै चलितशिरसा साधुवचने तदीयैर्माधुर्यै रपलपिततन्त्री कलरवान् निजा वीणा वाणी निचुलय चोलेन निभृतम् कराग्रेण स्पृष्टन् तु हि न गिरिणावाचलतया गिरीशेनोदस्तम् मुहुरधरपानाकुलतया करग्रायं शम्भोर्मुखमुकुरवृन्तम् गिरिसुते कथङ्कारम् ब्रूमस्तव चिबुकमौपम्यरहितम् भुजाश्लेषान्नित्यम् पुरदमयितुक्कण्टकवती तव ग्रीवाधत्ते मुखकमलनालश्रियमियम् स्वतःश्वेताकाला गुरुबहुलजम्बालमलिना मृणालीलालित्यौ वहति यदधोहारलतिका गलेरेखास्तिस्रो गतिगमकगीतैकनिपुणे विवाहव्यानद्ध प्रगुणगुणसङ्ख्या प्रतिभुवः विराजन्ते नाना विधमधुररागाकरभुवान् त्रयाणां ग्रामाणां स्थितिनियमसीमानैव ते मृणाली मृद्वीनान् तव भुजलतानाय चतसृणाय चतुर्भिः सौन्दर्यम् सरसिजभवस्तौतिवदनैः नखेभ्यस्तन्त्रस्यन् प्रमथमथनादन्धकरिपोष् चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया नखानामुद्द्योतैर्नवनलिनरागौ विहसितां कराणान्ते कान्तिं कथय कथयाम कथमु मे कयाचिद्वा साम्यं भजतु कलया हन्तकमलै यदि क्रीडल्लक्ष्मी चरणतललाक्षारुणदलम् समन्देविस्कन्दत् विपावदनपीतम् स्तनयुगम् तवेदन्नः खेदम् हरतु सततम् प्रश्नुतमुखम् यदालोक्याशङ्का कुलितहृदयोहासजनकस्स्वकुम्भौ हेरम्भः परिमृशति हस्तेन झटिति अमूते वक्षोजावमृतरसमाणिक्यकुप्तुपौ न सन्देहस्पन्दो न गपतिपताके मनसिनः पिबन्तौ तौ यस्मा दविदितवधूसङ्गरसिकौ कुमारावद्यापि द्विरदवदनक्रौ च दलनौ वः रामदनुज कुंभा प्रकृतिभिस्समारब्धा मुक्ता मणिभिरमलां हारलतिकां कुचाभोगो बिम्बा धररुचिभिरन्तः शबलितां प्रतापव्यामिश्रां पुरदमयितुक् कीर्तिमिवते तव स्तन्यं मन्ये धरणिधर कन्ये हृदयतः पयः पारावारः परिवहति सारस्वतमिव दयावत्या दत्तन् द्रविडशिशुरास्वाद्य तव यत् कवीनां प्रौढानां मजनिकमनीयक् कवयिता हरक्रोधज्वाला वलिभिरवलीडे नवपुषा गभीरेते नाभि सरसीकृतसङ्गो मनसि जः समुत्तस्थौ तस्मा दचलतनये धूमलतिका जनस्ताई जानीते तव जननि रोमावलिरिति यदेतत्कालिन्दी तनुतरतरङ्गाकृतिशिवे कृशे मध्ये किञ्चित् जननि तव यद्भाति सुधियाम् विमर्दादन्योन्यम् कुचकलशयोरन्तरगतन् तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् स्थिरो गङ्गावर्तस्तनमुकुलरोमावलिलता कलावालं कुण्डं कुसुमशरतेजो हुतभुजः रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते बिलद्वारं सिद्धिर्गिरिशनयनाविजयते निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो न मन्मूर्तिर्नारीतिलकशनकैस्तृट् यत इव चिरन्ते मध्यस्य त्रुटिततटिनीतीरतरुणा समावस्थास्थीम्नो भवतु कुशलं शैलतनये कुचौ सद्यस्विद्यत् तटघटितकूर्पासविदुरौ कषन्तौ दोर्मूले कनककलशाभौ कलयता तवत्रातुम्भङ्गा दलमिति वलग्रन्तनुभुवा त्रिधानद्धन्देवित् त्रिवलिलवलीवल्लिभिरिव गुरुत्वविस्तारं क्षितिधरपतिः पार्वति निजान् नितम्बादाच्छिद्यत् त्वयि हरणरूपेण नितंब प्राभारस स्थगयति लघुत्वन्नयति च करीन्द्राणां शुण्डान् कनककदलीकाण्डपटली मुभाभ्यामूरुभ्या मुभयमपि निर्जेत्य भवति सुवृत्ताभ्यां पत्युः प्रणति कठिनाभ्यां गिरिसुते विजिज्ञे जानुभ्यां विबुधकरि कुम्भद् वयमसि पराजेतुं रुद्रन् द्विगुणशरगर्भौ गिरिसुते निषङ्गौ जङ्घेते विषमविशिखो बाढमकृत यदग्रे दृश्यन्ते दशशरफलाः पादयुगली नखाग्रच्छद्मानस् सुरमकुटशाणैक निशिताः श्रुतीनां मूर्धानो दधति तव यौशेखरतया ममाप्येतौ मातश् शिरसि दयया धेहि चरणौ ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी ययोर्लाक्षालक्ष्मी ररुणहरिचूडामणिरुचिः नमो वाकं ब्रूमो नयनरमणीया तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते असूयत्यत्यन्तै यदविहननाय स्पृहयति पशूनामीशानः प्रमदवनकङ्के मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितल् ललाटे भर्तारै चरणकमले ताडयति ते चिरादन्तशल्यन् किलिकिलितमीशानरिपुणा हिमानि हन्तव्यं हिमगिरिनिवासैकचतुरौ निशायान्निद्राणन् निशिचरमभागे च विशदौ वरलक्ष्मीपात्रम् श्रियमतिसृजन्तौ समयिना सरोजन्त्वत्पादौ जननि जयतश्चित्रमिह किम् पदन्ते कीर्तीनां प्रपदमपदन्दे विपदां कथन्नीतं सद्भिक् कठिनकमठीकर्परतुलां कथं वा बाहुभ्या मुपयमनकाले पुरभिदा यदा दायन्यः सन् दृषदि दयमानेन मनसा नखैर्नाकस्त्रीणां करकमलसङ्कोच शशिभिस्तरूणां दिव्यानां हसत इव ते चण्डिचरणौ फलानि स्वस्तेभ्यः किसलयकराग्रेण ददतान् दरिद्रेभ्यो भद्रां श्रियमनिष मह्नाय ददतौ ददाने दीनेभ्यः श्रियमनिषमाशानुसदृशी ममन्दं सौन्दर्य प्रकरमकरन्दं विकिरति तवास्मिन् मन्दारस्तवक सुभगे यातु चरणे निमज्जन्म जीवक करण चरण षट् चरणताम् पदन्यास क्रीडा परिचयमिवारब्धु मनसः स्खलन्तस्ते खेलं भवन कलहं सान जहति अतस्तेषां शिक्षां सुभगमणिमयि जीररणितच् छलादाचक्षाणै चरणकमलै चारुचरिते गतास्ते मयि च त्वन् द्रुहिण हरिरुद्रीश्वरभृतश् शिवस्त्वच्छच्छाया घटितकपटप्रच्छदपटः त्वदीयानां भासां प्रतिफलनरागारुणतया शरीरी शृङ्गारो रसैव दृशान् दोग्धिकुतुकम् अरालाकेशेषु प्रकृति सरला मन्दहसिते शिरीषाभाचित्ते दृषदुपलशोभाकुचतटे भृशन्तन्वीमादि पृथुरुर सिजारोह विषये जगत्रातुं शम्भोर्जयति करुणा काचिदरुणा कलङ्कः कस्तूरी रजनिकरबिम्बै जलमयं कलाभिः कर्पूरैर्मरकतकरण्डम् निविडितम् अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं विधिर्भूयो भूयो निविडयति नूनं तव कृते पुरारातिरन्तः पुरमसि ततस्त्व चरणयोस्सपर्यामर्यादा तरलकरणानाम सुलभा तथा ये ते नीताश् शतमखमुखा सिद्धिमतुलान् तवद्वारोपान्तस्स्थितिविरणि माद्या रमराः कलत्रौ वैधा कति कति भजन्ति न कवयश् श्रियो देव्याः को वा न भवति पतिक् कैरपि धनैः महादेवं हित्वा तव सति सतीनाम चरमे कुचाव्यामासङ्गक् कुरवक तरोरप्यसुलभः गिरामाहुर्देवीं द्रोहिण गृहिणी मागमविदो हरिः पत्नीं पद्मां हरसहचरीमाद्रितनयां तुरीयकापि त्वन् दुरधिगमनिस्सीम महिमा महामाया विश्वं भ्रमयसि परब्रह्म महिषि कदा काले मातक् कथय कलितालक्तकरसं पिबेयं विद्यार्थी तव चरणनिर्णीजनजलं प्रकृत्या मूकानामपि च कविता कारणतया कदा धत्ते वाणी मुखकमलताम्बूलरसतां सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते रतिः पातिव्रत्यं शिथिलयतिरं येण वपुषा चिरैर्जीवन्नेव क्षपितपशुपाशव्यतिकरः परानन्दाभीख्यं रसयति रसं त्वद् भजनवान् प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः सुधासूतेश्चन्द्रो पलजललवैरर्घ्यरचना स्वकीयैरम्भोभिस्सलिलनिधिसौहित्यकरणन् त्वदीयाभिर्वाभिस्तव जननि वाचां स्तुतिरियम् अनुबन्धः समानीतः पद्भ्यां मणिमुकुरताममम्बरमणिर्भयादास्यादन्तस्तिमितकिरणश्रेणिमसृणः दधाति त्वद्वक्त्र प्रतिफलनमश्रान्तविकचन् निरातङ्कै चन्द्रान् निजहृदयपङ्केरुहमिव समुद्भूतस्थूलस्तनभरमुरश्चारुहसितं कटाक्षीकन्दर्पक् कतिचन कदम्बद्युतिवपुः हरस्य त्वद्रान्तिं मनसि जनयन्ति स्म विमलाः भवत्या ये भक्ताः परिणति रमीषामि यमुमे निधे नित्यस्मेरे निरवधिगुणे नीतिनिपुणे निराघातज्ञाने नियमप चित्तैकनिलये नियत्या निर्मुक्ते निखिल निगमान्तस्तुतिपदे निरातंके नित्ये निगमय ममापि स्तुतिमिमां। इति श्रीमत्परमहंस परिव्राजकाचार्यस्य श्री गोविंद भगवत पूज्य पाद शिष्यस्य श्रीमच्छंकर भगवतकृतौ सौंदर्यलहरी संपूर्णा। ओम।